यस्य स्वयं स्वभावाप्ति रभावे कृत्स्न कर्मणः तस्मै संज्ञान रूपाय नमोस्तु परमात्मने। योग्योपादान योगेन दृषदः स्वर्णतामता द्रव्यादिस्वादिसंपत्ता वात्मनोप्यात्मतामता। वरं व्रतहि पदं दैवं नाव्रतैर्वत नारकं छायातपस्थयोर्भेदः प्रतिपालयतोर्महान्। यत्र भावः शिवं दत्ते द्यहुकियद्दूरवर्तिनी यो नयत्याशुगव्युतिं क्रोशार्धे किं ससीदति। ऋषिकजमनातङ्कं दीर्घकालोपलालितं नाके नाकौकसां सौख्यं नाके नाकौकसामिव। वासनामात्रमेवैतत् सुखं दुःखं च देहिनां तथायुद्वेजयन्त्येते भोगा रोगा इवापदि। मोहेन संव्रतं ज्ञानं स्वभावं लभते नहि। मत्तः पुमान् पदार्थानां यथा मदनकोद्रवहि। वपुर्ग्रहं धनं दाराः पुत्रा मित्राणि शत्रवः। सर्वधान्यस्वभावानि मूढः स्वानि प्रपद्यते। दिग्देशेभ्यः खगा एत्य संवसन्ति नगे नगे। स्वस्वकार्यवशाद्यान्ति देशे दिक्षु प्रगे प्रगे। विराधकः कथं हन्त्रे जनाय परिकुप्यति। त्र्यङ्गुलं पातयन् पद्भ्यां स्वयं दण्डेन पात्यते। रागद्वेषद्वयी दीर्घ नेत्राकर्षणकर्मणा अज्ञानात् सुचिरं जीवः संसाराब्धौ भ्रमत्यशौ। विपद्भवपदावर्ते पदिके वाति वाह्यते। यावत्तावद्भवन्त्यन्याः प्रचुरा विपदः पुरः। दुरर्ज्येनासुरक्षेण नश्वरेण धनादिना स्वस्थं मन्यो जनः कोऽपि ज्वरवानिव सर्पिषा। विपत्तिमात्मनो मूढः परेशामिव नेक्षते। दह्यमान मृगाकीर्ण वनान्तरतरुस्थवत्। आयुर्वृद्धिक्षयोत्कर्ष हेतुं कालस्य निर्गमम्। वाञ्छतां धनिनामिष्टं जीवतात् सुतरां धनम्। त्यागाय श्रेयसे वित्त मवित्तः सञ्चिनोति यः। स्वशरीरं सपङ्केन नास्यामीति विलिम्पति। आरम्भे तापकान् प्राप्ता वत्रप्ति प्रतिपादकान् अन्ते सुदुस्त्यजान् कामान् कामं कः सेवते सुधीः। भवन्ति प्राप्य यत्सङ्ग मशुचीनी शुचीन्यपि सकायः संततापायस् तदर्थं प्रार्थना व्रता यज्जीवस्योपकाराय तद्देहस्यापकारकम् यद्देहस्योपकाराय तज्जीवस्यापकारकम् इतश्चिन्तामणिर्दिव्य इतः पिण्याकखण्डकम् ध्यानेन चेदुभे लभ्ये क्वाद्रियन्तां विवेकिनः स्वसंवेदन् सुव्यक्तस्तनुमात्रो निरत्ययः अत्यन्तसौख्यवानात्मा लोकालोकविलोकनः संयम्यकरणग्राम मेकाग्रत्वेन चेतसः आत्मानमात्मवान् ध्याये दात्मनैवात्मनिस्थितम् अज्ञानोपास्तिरज्ञानं ज्ञानं ज्ञानी समाश्रयः ददाति यत्तु यस्यास्ति सुप्रसिद्धमिदं वचः परीशहाद्यविज्ञानादाश्रवस्य निरोधिनी जायते ध्यात्मयोगेन कर्मणा माशु निर्जरा कटस्य कर्ताहमिति सम्बन्धः स्याद्वयोर्द्वयोः ध्यानं ध्येयं यदात्मैव सम्बन्धः कीदृशस्तदा बध्यते मुच्यते जीवः सममो निर्ममः क्रमात् तस्मात् सर्वप्रयत्नेन निर्ममत्वं विचिन्तयेत् एकोऽहं निर्ममः शुद्धो ज्ञानी योगीन्द्रगोचरः बाह्याः संयोगजाभावा मत्तः सर्वेऽपि सर्वथा दुःखसन्दोहभागित्वं संयोगादिह देहिनां त्यजाम्येनं ततः सर्वं मनोवाक्कायकर्मभिः न मे मृत्युः कुतो भीतिर् न मे व्याधिः कुतो व्यथा नाहं बालो न वृद्धोऽहं न युवै तानि पुद्गले भुक्तोज्झिता मुहुर्मोहान् मया सर्वेऽपि पुद्गलाः उच्छिष्टेष्विव मम विज्ञस्य का स्पृहा कर्म कर्म हिताबन्धी जीवो जीवहितस्पृहः स्वस्वप्रभावभूयस्त्वे स्वार्थं को वा न वाञ्छति परोपकृतिमुत्सृज्य स्वोपकारपरो भव उपकुर्वन् परस्याज्ञो दृश्यमानस्य लोकवत् गुरूपदेशादभ्यासात् संवित्तेः स्वपरान्तरम् जानाति यः स जानाति मोक्षसौख्यं निरन्तरम् स्वस्मिन् सदभिलाषित्वा दभीष्टज्ञापकत्वतः स्वयं हितप्रयोक्तृत्वा दात्मैव गुरुरात्मनः नाज्ञो विज्ञत्वमायाति विज्ञो नाज्ञत्वमृच्छति निमित्तमात्रमन्यस्तु गतेर्धर्मास्ति कायवत् अभवच्चित्तविक्षेप एकान्ते तत्र संस्थितः अभ्यस्येदभियोगेन योगी तत्त्वं निजात्मनः। यथा यथा समायाति संवित्तौ तत्त्वमुत्तमं तथा तथा न रोचन्ते विषयाः सुलभा अपि। यथा यथा न रोचन्ते विषयाः सुलभा अपि तथा तथा समायाति संवित्तौ तत्त्वमुत्तमं। निशामयति निःशेष मिन्द्रजालोपमं जगत् स्पृहयत्यात्मलाभाय गत्वान्यत्रानुतप्यते। इच्छत्यैकान्तसंवासं निर्जनं जनितादरः निजकार्यवशात्किञ्चि दुक्त्वा विस्मरति द्रुतं। ब्रुवन्नपि हि न ब्रूते गच्छन्नपि न गच्छति। स्थिरीकृतात्मतत्त्वस्तु पश्यन्नपि न पश्यति। किमिदं कीदृशं कस्य कस्मात् क्वेत्यविशेषयन् स्वदेहमपि नावैति योगी योगपरायणः। यो यत्र निवसन्नास्ते स तत्र कुरुते रतिं। यो यत्र रमते तस्मा दन्यत्र स न गच्छति। अगच्छस्तद्विशेषाणा मनभिज्ञश्च जायते। अज्ञात तदविशेषस्तु बध्यते न विमुच्यते। परः परस्ततो दुःख मात्मैवात्मा ततः सुखम्। अत एव महात्मानस्तन्निमित्तं कृतोद्यमाः। अविद्वान्पुद्गलद्रव्यं योऽभि नन्दति तस्य तत् न जातु जन्तोः सामीप्यं चतुर्गतिषु मुञ्चति। आत्मानुष्ठाननिष्ठस्य व्यवहारबहिःस्थितेः जायते परमानन्दः कश्चिद्योगेन योगिनः। आनन्दो निर्दहत्युद्धं करमेन्धनमनारतं। न चासौ खिद्यते योगी बहिर्दुःखेष्वचेतनः। अविद्याभिदुरं ज्योतिः परं ज्ञानमयं महत्। तत्पृष्टव्यं तदेष्टव्यं तद्द्रष्टव्यं मुमुक्षुभिः। जीवोऽन्यः पुद्गलश्चान्य इत्यसौ तत्त्वसङ्ग्रहः। यदन्यदुच्यते किञ्चित् सोऽस्तु तस्यैव विस्तरः। इष्टोपदेशमिति सम्यगधीत्य धीमान् मानापमानसमतां स्वमताद्वितन्य। मुक्ताग्रहो विनिवसन् सजने वने वा मुक्तिश्रियं निरुपमा मुपयाति भव्यः।
हो गया।